एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रनिर्मातुः पृथ्वीनारायण शाहस्य चतुरुत्तर त्रिशततम जन्म जयन्ती पूर्वेद्यु विभिन्नान् कार्यक्रमान् आयोज्य समायोजितास्ति। पृथ्वी जयन्त्याः राष्ट्रियैकता दिवसस्य च अवसरे ह्य राष्ट्रपतिः रामचन्द्र पौडेलः राष्ट्रनिर्मातुः साहस्य प्रतिमायां पुष्पाणि आर्पयत्। सिंहप्रासादस्य पश्चिमद्वारे राष्ट्रनिर्मातुः पृथ्वीनारायण साहस्य प्रतिमावर्तिनी चतुष्पथे ह्यः आयोजिते विशेष समारोहे सहभागी भूत्वा राष्ट्रपतिः पौडेलः पृथ्वीनारायण साहं प्रति सम्मान प्रकटन पुरस्सरं तदीय प्रतिमायां पुष्पाणि अर्पितवान् आसीत्। प्रधानमन्त्रिणा सुशीला कार्किणा च राष्ट्रनिर्मातुः पृथ्वीनारायण साहस्य प्रतिमायां ह्यः पुष्पाणि अर्पितानि सन्ति। तदवसरे नेपाली सेनायाः समूहेन सैन्याभिवादनम् अर्पितम् आसीत्। समारोहे उपराष्ट्रपतिः रामसहाय प्रसाद यादव, प्रधान न्यायाधीशः प्रकाशमान सिंह राउत, राष्ट्रिय सभायाः अध्यक्ष नारायण प्रसाद दाहाल, उपाध्यक्ष विमला घिमिरे, मन्त्रीगणश्च सहभागिनः आसन्। काष्ठमण्डपोपत्यका सहितेषु आराष्ट्रम् गोर्खा सहितेषु जनपदेष्वपि राष्ट्रनिर्मातुः पृथ्वीनारायण शाहस्य जन्मजयन्ती समायोजिता आसीत्। एवमेव राष्ट्रियैकता दिवसस्य पृथ्वी जयन्त्याश्च अवसरे पूर्वेद्युः राप्रपा दलेन ह्य आयोजिते चायपान कार्यक्रमे प्रधानमन्त्री सुशीला कार्की सहभागिनी सम्भूता आसीत्। चायपान कार्यक्रमे संचार सूचना प्रविधि मन्त्री जगदीश खरेलः, विभिन्न राजनीतिक दलानां नेतारः, नेपालस्थ कूटनीतिक नियोगानां प्रमुखाः, प्रतिनिधयश्च समाजस्य विभिन्न क्षेत्राणाम् अग्रणी नेतारश्च सहभागिनः सम्भूताः आसन्। आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य अन्तर्गतं समानुपातिक निर्वाचन प्रणाल्याः गोप्यसूच्यां नामानि विद्यमानैः प्रत्याशिभिः अद्य दशवादनात् दिवा चतुर्वादनं यावत् स्वस्य नाम प्रत्यावर्तयितुं शक्यते इति निर्वाचनायोगेन ज्ञापितमस्ति। सम्बद्ध प्रत्याशिनाम् उपस्थित्यै असमर्थतायां सत्याम् तथाविध प्रत्याशीभिः स्वस्य प्रतिनिधेर माध्यमेनापि स्वस्य नाम प्रत्यावर्तयितुं शक्यते इति व्यवस्था विहितास्तीति निर्वाचनायोगस्य सचिवः निर्वाचनाधिकृतः कृष्णबहादुर राउत एतत्सम्बद्ध विज्ञप्तौ संसूचितवान् वर्तते। निर्वाचनायोगेन प्रतिनिधिसभायाः सदस्यानाम् आसन्न निर्वाचनाय राजनीतिक दलानां प्रत्याशिनां मतदातृणां च सुरक्षायाः विश्वसनीयं वातावरणं निर्मितमस्तीति ज्ञापितं वर्तते। निर्वाचने सुरक्षायाः कारणेनैव राजनीतिक दलैः प्रत्याशिभिश्च जनतायाः गृहं प्राप्य मतं याचितुं, मतदातृभिः मतदानं कर्तुं च असौविध्यादि स्थितिश्च नास्ति नागमिष्यतीति च आयोगेन दृढता व्यक्तास्ति। निर्वाचनायोगस्य प्रवक्ता नारायण प्रसाद भट्टराई एकीकृत सुरक्षाया योजनाया अनुसारेण चतुर्भि एव सुरक्षा निकायैः समन्वयं विधाय कार्यं विधीयमानमस्ति। नेपाल सर्वकारेणापि आवश्यक स्रोत साधनानि प्रदाप्यमानानि सन्तीति च असूचयत्। अत्रान्तरे निर्वाचनायोगेन निर्वाचनं स्वच्छं निष्पक्षं च विधातुं सामाजिक सञ्जालेषु जायमानाः गतिविधयः अपि आचार संहितायाः परिधौ आनीताः सन्तीति ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य संस्थापन पक्षस्य विमतेर मध्ये ह्य काष्ठमण्डपे दलस्य द्वितीय विशेष महाधिवेशनम् प्रारब्धम् वर्तते। नेपाली कांग्रेस दलस्य प्रतिशतम् चतुःपञ्चाशता महाधिवेशन प्रतिनिधिभिः गताश्विन मासस्य एकोनत्रिंशे दिवसे केन्द्रीय कार्यालये पञ्जीकारितस्य विशेष महाधिवेशन निवेदनस्य याचनायाः अनुसारेण ह्यस्तन दिवसात् विशेषाधिवेशनम् प्रारब्धम् वर्तते। विशेष महाधिवेशनस्य नेपाली कांग्रेस दलस्य महामन्त्रीद्वयेन गगन कुमार थापा विदेन विश्वप्रकाश शर्मणा च संयुक्त रूपेण उद्घाटनम् विहितमासीत्। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य सभापते कृष्ण बानिया विदस्य अध्यक्षतायां काष्ठमण्डपस्य भ्रिकुटी मण्डपस्थाने आयोजिते विशेष महाधिवेशनस्य उद्घाटन सत्रे भाषमाणाः नेतारः जेन्जी युव सन्ततेः आन्दोलनस्य पश्चात् श्रेष्ठायाः विशेष परिस्थितेः परिवर्तित परिवेशस्य च अनुसारेण नेपाली कांग्रेस दलं परिवर्तयितुं विशेष महाधिवेशनस्य आवश्यकता भूत इति विचारं व्यक्तवन्तः सन्ति। अत्रान्तरे काष्ठमण्डपस्य भ्रिकुटी मण्डपे जायमानस्य नेपाली कांग्रेस दलस्य विशेष महाधिवेशनस्य पक्षे सहस्रद्वयेन द्वाषष्ट्युत्तर षड्भिः शतेन महाधिवेशन प्रतिनिधिभिः नामानि पञ्जीकारितानि सन्तीति विशेष महाधिवेशनस्य आयोजन सचिवालयेन ज्ञापितम् अस्ति। जसपा नाम्नो जनता समाजवादी दल नेपालस्य लोसपा नाम्नो लोकतान्त्रिक समाजवादी दलस्य च मध्ये एकीकरण सम्बद्धे संविधापत्रे हस्ताक्षराणि विहितानि वर्तन्ते। जसपा दलस्य अध्यक्ष उपेन्द्र यादव लोसपा दलस्य अध्यक्ष महन्त ठाकुरस्य द्वादश सूत्रीय सहमतिपत्रे हस्ताक्षराणि विधाय ह्य दलद्वयस्य मध्ये औपचारिकैकताम् विहितवन्तौ। संविधाया अनुसारेण एकताया पश्चात् दलस्य संरक्षक ठाकुर अध्यक्ष यादवश्च भविष्यति। एकीकरणस्य पश्चात् दलस्य नाम जनता समाजवादी दल नेपालम् स्थापयितुं निर्णीतमस्ति। दलस्य निर्वाचन चिह्नम् छत्रम् भविष्यति इति सहमति धृता वर्तते। गायक कलाकारश्च प्रशान्त तामाङ द्वाचत्वारिंशतो वर्षाणां वयसि हृदयाघातस्य कारणेन ह्य भारतस्य नयाँ दिल्ली स्थाने दिवंगतो वर्तते। तदीय निधनेन दार्जीलिङ वासिभिषा आसंसारं विद्यमानः नेपाली भाषिणो जना निःशब्दं सम्भूताः वर्तन्ते इति समाचाराः।